तं यज्ञं बर्हिषः क्षिप्रोक्षन् पुरुषं जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद् यज्ञात् सर्वहुतः संभृतं पृषदाज्यम् पशुङ्गस्तागंश्चक्रे वायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद् यज्ञात् सर्वहुतः रुचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त जज्ञिरे तस्मात् तस्माच्चाता अजावयः यत्पुरुषं यदधु कथिताव्यकल्पयन् मुखं किमस्य को बाहो काभूरो पादावुच्यते ब्राह्मणो अस्य मुखमासीत् बाहो राजन्यः कृतः पूरो तदस्य यद्वैश्यः पथ्यागम् सूत्रो अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्च अग्निश्च प्राणाद्वायुरजायत नाभ्यामासीत् तृप्तां तर्पयन्ति पत्ने स्थितां पद्मवर्णां तामिहोपहये श्रियं चन्द्राप्रभासां यशसा ज्वलन् लक्ष्मीर्मे नश्यता त्वां ऋणे आदित्यवर्णे तपसोधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तो मायान्तरायश्च बाह्या लक्ष्मीः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददा क्षुत्पिपासामला ज्येष्ठामलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वान्निर्मुदने गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणी ईश्वरीकं सर्वभूतानां श्रीः वर्तमेन प्रजाभूता मयि संभव कर्तमा श्रियं वासय मे कुले मातरं आपसृजन्तो स्निग्धानि चिक्लीत वसमे गृहे निच देवी मातरगं श्रियं वासय मे कुले आर्द्रां पुष्करीं पुष्टिं जातवेदो ममावह आत्रां यः करिणीं यष्टिम् सुवर्णा अनपदामिनी यस्यां हिरण्यं प्रभूतम् गावो दास्यो स्वामिन्देयं पुरुषानहम् शुचिः प्रयतो भूत्वा जुहुयादाच्य मन्वहम् श्रियः पञ्चदशर्चं च श्रीकामः सततं जपे लक्ष्मीं क्षीरसमुद्रराजतनया ಭೂತ ಸಮಸ್ತ ದೇವವನಿತಾ ಲೋಕೈಕ ದೀಪಾಂಕುರಾ.